ॐ सहस्रशीर्षापुरुषः सहस्राक्षसहस्रपाल सभोविम् विश्वतो हृत्वा अत्यधिष्ठदशाङ्गुलाम् पुरुषे वेदकम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येशानः यदन्लेलाभिलोहति एतावानस्य महिमा अथोऽध्यायागिश्च पौरुषः पादास्तमिश्वा भूतानि त्रिपादश्चामृतम् दिवे त्रिपादोद्धमुदयत्तरुणः पादास्येभवात्तरः ततो विष्णम् व्यक्रामदे साधनायतने अभे तस्माद्विराजायत विराजो अधिपोरुषः स जातोच्चरिच्यत पश्चाद्धो विमतो पुनः यत्पुरुषेण विराः देवायज्ञमसल्वदा वसन्तोऽष्टादेराज्यम् ग्रेष्टयुद्धशरद्धवेः सप्तास्यादम्बविधयः त्रिसप्तनविधः कृताः देवायज्ञम् लल्वादाः अवध्यम् पुरुषम् वशम् तञ्यज्ञम् बहिर्प्रवक्षम् पुरुषम् जातमग्रतः तेन देवायजन्ता साध्यारिषयस्तजे तस्माद्यज्ञात् सर्वभुतः सम्भृतम् बृहदाज्ञम् अशोजस्तादिष्टक्रयवायव्यानि आरण्यान् ग्राम्याश्चये तत्माद्यज्ञात् सर्वभुतः ऋषस्तामानि जज्ञरे छन्दागम् सुजज्ञरे तस्माद् यजस्तस्मादजायत तत्मादस्वाजायन्त एके च भजादतः जावाभजज्ञरे तस्माद् तस्माज्जाता अजावयः यत्त्वर्णम् व्यदधः कलिताब्जकल्पयन् उभञ्जमस्य गौ बाहो रावरोपादामुच्यते ब्राह्मणोऽष्टमासेत् बाहोराजन्यः कृतः ओरोदतश्च यद्दैष्यः पद्भ्यागौ श्रोत्र अजायत छन्दमामनसो जातः चक्षोऽजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वाजुरजायत प्राप्त्या आसेदन्तरिक्षम् श्वेताद्यौ समवर्तत पद्भ्याम् वामन्विधश्रोत्राद् तथा लोकागम् अकल्पयन् मेधाः भेदम् पुरुषम् महान्तम् आदित्यमन्नन्तमभस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि वृत्ताभिवधयदाच धाता पुरस्ताद्यमुदा जहाद षट्प्रविद्वान् प्रविधस्ततः त्वमेवम् विद्वानमृत इद भवति अरुणाय विद्यते यज्ञेन यज्ञमजदन्त देवाः तानि धर्माणि प्रथमान्यासन् जयगनाशम् महिमानस्तदन्ते यत्र पूर्वेदाध्यास्तन्ति देवाः अध्यस्तम्भोध पृथिव्यैरसा च विश्वकर्मदत्तमवत्तदाधि तस्य स्रष्टा विदधद्रोपवेदे तत्पुरुणश्च विश्वमाजानमग्रे वेदानमेवम् पुरुषम् महान्तम् आदित्यमन्नन्तमसः परस्तात् तमेवम् विद्वानमृत इव भवति नाल्यपन्था विद्यतेजनाय प्रजापतिष्ठति कर्ते अन्नः अजायमानोपकृता विजायते तस्य वीणा प्रविजानम् त्रिजानम् मरीचीना पदमिच्छन्ति वेदतः यो देवेभ्यमातपति यो देवानाहम् पुरोहितः
ఫలాదంతమాజాంతరాజాచ్యవాక్యా లక్ష్మీ